एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः प्रतिनिधि सभायाः गतदिवसीयोपवेशेन एतत् वैक्रमाब्दम् कतिचिन् नेपालादि नियम संशोधन विधेयकम् बहुमतेन पारितीकृतम् वर्तते। उपवेशेन विधिन्याय संसदीय विषय मन्त्रिणा गोविन्द प्रसाद शर्मा कोइरालाधीनेन प्रस्तुतम् विधेयकमिदम् बहुमतेन पारितीकृतमस्ति। तत्पूर्वम् विधेयकमाश्रित्य वेते विमर्शने संसदैः निर्वाचनस्य प्रक्रिया प्रारभ्यति भाषमाणैः प्रतिनिधिसभायाः कार्यावधेः वर्धनत्वेन विधेयकम् नानेतव्यमिति धारणा उपस्थापिता आसीत्। उपदेशे विधिन्याय संसदीय विषय मन्त्री गोविन्द प्रसाद शर्मा कोइराला अवोचत् संविधानस्य व्यवस्थायाः अनुसारेणैव प्रतिनिधिसभायाः प्रदेशसभानां च कार्यकालस्य सम्बन्धे व्यवस्थां विधातुम् अपेक्षितम् वर्तते। मन्त्री कोइराला कार्यकालस्य सम्बन्धे अनावश्यक राजनीतिकीकरणम् अपेक्षितमिति ब्रुवन् विधिगत रिक्ततायाः अभावस्य च परिपूर्तेः चिन्तनेन प्रतिनिधिसभायाः प्रदेशसभानां च कार्यकालस्य प्रबन्धनम् अपेक्षितमिति समस्पष्टयत्। तत्पूर्वं प्रतिनिधिसभायाः उपवेशे सांसदैः कृषकैः यथासमयं मलस्य बीजस्य च अप्राप्तेः सम्प्रति संचालितस्य नेपाल स्ट्रक एक्सचेंज वित्तीयापण व्यवस्थापन संस्थायाः प्रभावकारितायाः सुदृढीकरणस्य आधुनिकीकरणस्य च राष्ट्रिय सहमतिं सन्धार्य नागरिकता विधेयकस्य सर्वकारस्य ध्यानम् आकर्षितम् आसीत्। प्रतिनिधिसभायाः अपरोपवेशः अद्य दिवा एकवादने वसति। राष्ट्रियसभायाः ह्यस्तनोपवेशेन प्रतिनिधिसभातः ससन्देशं प्राप्तम् एतद् विक्रमवर्षीयं
कारागार विधेयकम् प्रतिनिधिसभातः संशोधनं कृत्वा पुनः पारितीकरणाय प्रस्तुतं 77-200
विक्रम वर्षीयं नगरीय क्षेत्र सार्वजनिक यातायात व्यवस्थापन प्राधिकरण विधेयकञ्च पारितीकृते स्तः। उपवेशेन प्रतिनिधिसभातः ससन्देशं प्राप्ते 75-200 विक्रम वर्षीयं जीवन सुरक्षण कोष विधेयकम् 77-200 विक्रम वर्षीयं सार्वजनिक ऋण व्यवस्थापन विधेयकञ्च सर्वसम्मत्या स्वीकृते स्तः। उपवेशेन कृषि पशुपक्षी विकास मन्त्रिणा मृगेन्द्र कुमार सिंह यादवेन प्रतिनिधिसभातः ससन्देशं प्राप्तं 77-200 विक्रम वर्षीयं पशु स्वास्थ्य पशुसेवा परिषद विधेयकम् प्रकरणगत विमर्शनाय विधायन व्यवस्थापन समितौ प्रेष्यतामित्युक्त्वा प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतोऽस्ति। राष्ट्रियसभायाः अपरोपवेशः अस्यैव भाद्रस्य 26 दिवसे रविवासरे दिवा एकवादने वस्ता। एकसप्तत्यधिकद्विसहस्रतम वैक्रमाब्दस्य विलोपितानां व्यक्तिनाम् अन्वेषण सत्यनिरूपणमेला योगाधिनियमस्य संशोधनाय निर्मितस्य विधेयकस्य अग्रे वर्धापनस्य विषये दलानां मध्ये सहमते धृता वर्तते। विधिन्याय मानवाधिकार समितेः गतदिवसीयोपवेशे संशोधन विधेयकम् अग्रे वर्धयितुं निर्णीतमिति सभापतिः कृष्णभक्त पोखरेलः अवोचत्। उपवेशे नेकपा एमाले दलस्य संसदीय दलस्य उपनेता सुभाष नेवांग अगदत् संशोधन विधेयकस्य यथाशीघ्रं निर्णयनम् आवश्यकं वर्तते। नेकपा माओवादी केन्द्रस्य उपमहासचिवः समितेः सदस्यश्च वर्षमान पुनः कथयत् सर्वेषां सहमतिं संयोज्य विधेयकस्य शीघ्रं निर्णयनाय गृहकार्यं कर्तव्यम्।
प्रधानमन्त्रिणा शेरबहादुरदेवघेलेन सह भारतीय स्थलसेनाध्यक्ष मनोज पाण्डे ह्यः शिष्टाचार मेलनम् अकरोत्। प्रधानसेनापतेः प्रभु राम शर्मणः औपचारिक निमन्त्रणायां गत रविवासरे नेपालस्य भ्रमणाय आगतः। सेनाध्यक्षः पाण्डे प्रधानमन्त्रिणा देवाभिधेन सह सिंहप्रासादवर्तिनि प्रधानमन्त्री मन्त्रिपरिषद कार्यालये शिष्टाचार मेलनम्
व्यदधात् इति प्रधानमन्त्रिणः संचार परामर्शदाता गोविन्द परियार ज्ञापितवान्। तत्पूर्वम् असौ शिवपुरीस्थितस्य सैन्यादेशन सैनिक महाविद्यालयस्य भ्रमणं विदाय महाविद्यालयस्य वस्तुस्थिति प्रवृत्तीनां विविध प्रख्यानां सूचनां गृहीत्वा महाविद्यालय प्रशिक्षणरतैः सैन्यादेशन सैनिक प्रशिक्षार्थिभिः अधिकृतैः सह अन्तरक्रियाम् अकरोत्। सैन्याध्यक्षस्य पाण्डेविदस्य अद्य मुस्ताङ जनपदवर्तिनः मुक्तिनाथ मन्दिरस्य दर्शनेन सह पोखरावर्तिनः नेपाली सेनायाः मध्यक्षेत्रीयादेशन मुख्यालयस्य भ्रमणस्य कार्यक्रमो वर्तते। संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की कथयति आगामिनि निर्वाचने सत्तारूढ दलेषु स्थानानाम् आवंटनं न्यायोचित रीत्या सम्मानजनक रूपेण च भविष्यति। नेपाल प्रेस यूनियन संघस्य केन्द्रीय समितेः पदाधिकारीभिः सदस्यैश्च सह मन्त्रालयैः विहिते मेलने मन्त्री कार्की न्यायोचित रूपेण सम्मानजनकतया च स्थानानाम् आवंटनं शीघ्रं व्यवस्थित रूपेण भविष्यतीति ज्ञापितवान्। राष्ट्र समृद्धेर दिशि अघि वर्धयितुं गठबन्धनम् आवश्यकम् अस्तीति चर्चयन् मन्त्री कार्की अवोचत्। गठबन्धनस्य दलानां सिद्धान्तः पृथक् सन्नपि राष्ट्रस्य स्वाधीनतायां लोकतन्त्रे जनतायाः पक्षे च समेषां संयुक्त धारणा वर्तते। मन्त्री कार्की अभाषत राष्ट्रस्य राजनीतेः उचितमार्गे आनयनेन सह संविधानस्य लोकतन्त्रस्य च रक्षां विधाय जनतायाः विकास समृद्ध्योर इच्छायाः शीघ्रातिशीघ्रं व्यवहारे परिवर्तनं विधातुं संकल्पेन गठबन्धनम् अग्रे वर्धितमस्ति। नेपाल कम्युनिष्ट पार्टी माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड निगदति सर्वेषाम् अस्तित्वस्य स्वीकरणत्वेन स्थानानाम् आवंटनम् भविष्यति। यो धनगढ़ी विमानस्थले संचारकर्मीभिः असौ अब्रवीत् गठबन्धने अभियाचनाया अनुसारेण स्थानानाम् भागः प्राप्तः सन्नपि सर्वेषाम् अस्तित्वस्य स्वीकरणत्वेन स्थानानाम् आवंटनम् भविष्यति। अध्यक्ष प्रचण्ड अवोचत् सत्ता गठबन्धनम् प्रभावकारी समन्वयम् विधाय एव निर्वाचनम् एष्यति। पञ्चदलीय सत्ता गठबन्धनस्य कार्यदलेन आगामिनो मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभायाः प्रदेशसभानां च निर्वाचनस्य पूर्वकार्यस्य कृते प्राप्तः कार्यादेश अद्ययावत् निर्णयं प्राप्यते। कार्यदलस्य उपवेश बालवाटारवर्तिनी प्रधानमन्त्री निवासे ह्य सायम् उपविष्टः आसीत्। उपवेशेन नैर्वाचनिक समन्वयस्य स्थानानाम् आवंटनस्य च सम्बन्धे स्वस्य कार्यं यथासम्भवम् अद्य बुधवासरं यावत् सम्पादनत्वेन ह्यस्तनोपवेश सम्पन्न इति कार्यदलस्य सचिव अधिवक्ता केशवराज जोशी ज्ञापितवान्। स्थानानाम् आवंटनस्य सम्बन्धे सहमतेर्निकटं प्राप्तं कार्यदलस्य पक्षत यथाशीघ्रं प्रतिवेदनं शीर्ष नेतृत्वाय प्रस्तोष्यते इति च असौ सूचितवान्। दलेभ्य प्राप्तानां मतानाम् अनुसारेण कतिचित् राजनीतिक विषयान् दृष्टि गतं विधाय सम्मानजनक रूपेण न्यायगत रूपेण च स्थानानाम् आवंटनस्य प्रारूपं निर्मितमस्ति। कार्यदलस्य उपवेशम् अद्य सायं पञ्चवादने पुनः आयोज्य स्वस्य दायित्वं पूरयितुं सहमति धृत्यति च सचिव जोशी असूचयत्। राष्ट्रपतेः विद्यादेवी भण्डारिणः समक्षं भाषायोगस्य अध्यक्षेण डा लवदेव अवस्थी इत्यनेन आयोगस्य वार्षिक प्रतिवेदनं प्रस्तुतं वर्तते। शीतल निवासवर्तिनी राष्ट्रपति कार्यालये ह्य आयोजिते विशेष समारोहे राष्ट्रपतेः भण्डारिणः समक्षं भाषायोगस्य अध्यक्ष डा अवस्थी आयोगस्य गतार्थिक वर्षीयं वार्षिक प्रतिवेदनमिदं प्रास्तौत। प्रतिवेदनं प्रस्तुवन् अध्यक्ष डा अवस्थी अकथयत् आयोगेन नेपाली भाषया सह अतिरिक्ता अन्य एकादश भाषा प्रदेशगतरूपेण सर्वकारीय कार्यसञ्चालनस्य भाषाणां रूपेण परामृष्टाः सन्ति। कार्यक्रमे राष्ट्रपति कार्यालयस्य सचिव यादव प्रसाद कोइराला अगदत् भाषाणां संरक्षण संवर्धनयोः कृते भाषायोगेन निरूढा भूमिका प्रशंसनीया वर्तते। राष्ट्रपतिना विद्यादेवी भण्डारिणा संघीय संसदः उभयोरेव सदनयोः उपवेशेन पारितीकृत्य प्रमाणीकरणाय प्रस्तुतं पेयजलस्य स्वच्छीकरणस्य च सम्बन्धे व्यवस्थातुं निर्मितं विधेयकं गतदिने प्रमाणीकृतं वर्तते।